एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सर्वकारेण अद्य प्रातः षड्वादनात् आराष्ट्रम् सर्वसाधारणाः गृहात् बहिः निष्क्रान्तुम् निषिद्धाः सन्ति। कोरोना जीवाणूनाम् संक्रमणस्य प्राप्तेः अनुपदमेव सर्वकारेण देशम् पूर्णरूपेण पिधातुम् निर्णीतम् एवम् अत्यावश्यक कार्याणि विहाय कस्यापि कृते गृहात् बहिः निष्क्रमणस्य यातायात साधनानाम् सञ्चालनस्य च निषेधनत्वेन मन्त्रिपरिषदः रविवासरे उपविष्टेन उपवेशेन निर्णीतमिति अर्थसञ्चार सूचना प्रविधि मन्त्री डाक्टर युवराज खतिवडा अवदत्। प्रधानमन्त्री कार्यालये सीमाप्रासादे ह्यः उपविष्टस्य कोरोना निरोधन नियन्त्रण सम्बद्धायाः उच्चस्तरीय समितेः उपवेशस्य पश्चात् सञ्चारकर्मिभिः सह भाषमाणः अर्थसञ्चार सूचना प्रविधि मन्त्री डाक्टर खतिवडा अद्य प्रातः षड्वादनात् चैत्रस्य अष्टादश दिवसस्य प्रातः षड्वादनम् यावत् सर्वसाधारणाः गृहात् बहिः निष्क्रान्तुम् निषिद्धाः सन्तीति अज्ञापयत्। असौ अवोचत खाद्यान्नानाम् अत्यावश्यक वस्तूनां च वाहकानि साधनानि विहाय अन्येषाम् यातायात साधनानां चालनमपि निषिद्धमस्ति। अर्थसञ्चार सूचना प्रविधि मन्त्री डाक्टर खतिवडा अत्यावश्यक सेवाः विहाय अन्येषाम् कर्मचारिणाम् आवश्यकतायाम् सत्याम् तत्कालम् आह्वानत्वेन अवकाश प्रदानात्मक व्यवस्थायाः कार्यालय प्रमुखेण प्रबन्धनत्वेन निर्णीतमस्तीति अभासत। कोरोना नियन्त्रण निरोधन सम्बद्धायाः उच्चस्तरीय समितेः उपवेशेन एतद् विक्रमवर्षीयः संसर्ग निषेधन व्यवस्थापन मापदण्डः स्वीकृतः। बलम्बुवर्तिनी सशस्त्र प्रहरी बलस्य चिकित्सालये कोरोना विषाणूनां संक्रमणस्य उपचारं नेपाली सेनायाः नेतृत्वस्य चिकित्सक समूहेन अन्यैः आवश्यक निकायैश्च सह समन्वयं सहकार्यं च विधाय कर्तुं निर्णीतमिति अर्थसञ्चार सूचना प्रविधि मन्त्री डाक्टर खतिवडा अबोधयत। फ्रान्स देशात् कतार देशस्य दोहा पारगमन मार्गेण अस्यैव चैत्र मासस्य चतुर्थे दिवसे नेपालम् आगतायाम् एकस्यां महिलायां कोरोना विषाणूनां संक्रमणं दृष्टमस्ति। स्वास्थ्य जनसंख्या मन्त्रिणा भानुभक्त ढकालेन गतदिने मन्त्रालय पत्रकार सम्मेलनम् आयोज्य कोरोना विषाणुभिः संक्रान्ता व्यक्तिः प्राप्तास्तीति ज्ञापितं वर्तते। कस्यापि लक्षणस्य अदृष्टेः अनन्तरम् आत्मसंसर्ग निषेधन कक्षे उषित्वा शुक्रराज ट्रपिकल संक्रामक रोग चिकित्सालयं प्राप्तायाः ऊनविंशति वर्षीयायाः युवत्याः गतरविवासरे स्वास्थ्य परीक्षणे विहिते कोविड ऊनविंशति विषाणूनां संक्रमणं दृष्टमस्तीति मन्त्री ढकालः अज्ञापयत्। कोरोना विषाणुभिः संक्रान्तायाः एतस्याः युवतेः टेकुवर्तिनी शुक्रराज ट्रपिकल संक्रामक रोग चिकित्सालये उपचारः विद्यमानोस्तीति मन्त्री ढकालः अवोचत। धैर्यं न त्यक्तुं सावधानपूर्वकं संक्रमणं न विस्तारयितुं च मन्त्रिणा ढकालेन सर्वे अनुरुद्धाः वर्तन्ते। सर्वकारेण कोरोना विषाणूनां संक्रमण निरोधन नियन्त्रणोपचार कोषे वित्तं संकलयितुम् अनुरुद्धं वर्तते। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयस्य सहसचिवेन राजेन्द्र कुमार पौडेलेन गतदिने सूचनां प्रकाशयता कोरोना विषाणूनां संक्रमणं न विस्तारयितुं नियन्त्रणाय निरोधनाय च इच्छुकाः व्यक्तयः संघ संस्थाश्च राष्ट्रिय वाणिज्य कोषागारे सञ्चालिते वित्ताभिलेखन प्रपत्रे वित्तं संकलयितुम् अनुरुद्धाः वर्तन्ते। एतस्मिन् कोषे मन्त्रिणाम् एकमासस्य वेतनं संस्थापयितुं पूर्वमेव निर्णीतमस्ति। राष्ट्रपतिना विद्यादेवी भण्डारिणा कोरोना विषाणूनां संक्रमण निरोधन नियन्त्रणोपचार कोषाय मासद्वयस्य पारिश्रमिकं प्रदास्यते। विश्वव्यापिन्याः महामार्याः रूपेण प्रसृतस्य कोविड ऊनविंशति संक्रामक रोगस्य संक्रमणं रोद्धुं नियन्त्रयितुं च नेपाल सर्वकारेण स्थापिते कोषे राष्ट्रपतिना भण्डारिणा मासद्वयस्य पारिश्रमिकं वित्तं प्रदास्यते इति राष्ट्रपति कार्यालयेन गतदिने प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। उपराष्ट्रपतिना नन्दबहादुर पुन इत्यनेन कोरोना विषाणु संक्रमण निरोधन नियन्त्रणोपचार कोषे स्वस्य एकमासस्य पारिश्रमिकं प्रदास्यते। विश्वव्यापी महामार्याः रूपेण व्यापितानां कोरोना ऊनविंशति विषाणूनां सम्भावित प्रकोपस्य निरोधन नियन्त्रणायोः कृते नेपाल सर्वकारेण स्थापिते कोषे पारिश्रमिकमेतत् प्रदास्यते इति उपराष्ट्रपतेः सञ्चार संयोजकः मनोज घर्ती अज्ञापयत्। एवमेव सभामुखेन अग्निप्रसाद सापकोटाभिधेन विपदा सहयोद्धुं सर्वकारेण कोषस्य स्थापनार्थं विहितं निर्णयम् अभ्यर्थयता अनेन स्वस्य पारिश्रमिकं कोषे संकलयितुं व्यवस्था विहिता वर्तते। सर्वकारेण अनलाइन प्रणाल्याः माध्यमेन विद्युत् शुल्कस्य संकलन व्यवस्था विधीयते। जलस्रोत सिंचन मन्त्रिण वर्षमान पुनीत्यस्य अध्यक्षतायां मन्त्रालयस्य अन्तर्गतै अधिकारिभिः सह गतदिने उपविष्टेन उपवेशेन शुल्क संकलन कार्यालय सम्भूतेन सम्मर्देन संक्रमणस्य संकटस्य उच्च सम्भावनया अनलाइन प्रणाल्यैव विद्युत शुल्कस्य अर्पण व्यवस्थां विधातुं निर्णीतमस्ति। अन्तर सञ्जालस्य आपूर्तेः अभावे ग्राहकैः निर्धारित समये शुल्क समर्पणे असामर्थ्ये सत्यपि प्रणाल्यः विच्छेदनं न करिष्यते इति उपवेशस्य पश्चात् मन्त्री पुन अज्ञापयत्। उपवेशेन नेपाल विद्युत प्राधिकरणस्य कर्मचारिभ्यो अवकाशं न प्रदातुमपि निर्णीतमस्ति। नेपाली सेनया आविश्वं प्रसृतस्य कोरोना विषाणुनां संक्रमणस्य संकटं ध्यात्वा अस्य निरोधनाय संकट न्यूनीकरण व्यवस्थापनाय च आवश्यक पूर्व कार्यं प्रारब्धमस्ति। कोरोना विषाणुनां संक्रमण सम्बद्धायां कस्यामपि घटनायां प्राप्तायां सत्यां सेनायाः चिकित्सकैः सहितं मुख्यं समूहं संघटय्य सम्पूर्णाभिः शाखोपशाखाभिः अन्य सर्वकारीय निकायैश्च सह आवश्यक समन्वय विधायकस्य संयन्त्रस्य व्यवस्था विहिता स्थिति सैनिक जनसम्पर्क सूचना निर्देशनालयेन ज्ञापितं वर्तते। प्रतिवर्षं चैत्रमासस्य कृष्णपक्ष अमावस्यायां दिने समायोज्यमानं अश्वकला पर्व अद्य काष्ठमण्डपोपत्यकायां कोरोना विषाणुनां संक्रमणस्य कारणेन निश्चितजनेषु सांकेतिकरूपेण आयोज्यमानं वर्तते इति समाचारः।